Cast is now starting. All attendees are in listen-only mode.
नमस्सर्वेभ्यः अद्य चम्पूरामायणस्य बालकाण्डे तृतीयः पाठः नवम्बर् मासस्य षष्ठः दिनाङ्कः लक्ष्मीं तनोतु नितरामितरानपेक्षमं हृद्वयं निगमशाखिशिखाप्रवालम् हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नम् विघ्नाद्रिभेदशतधारधुरन्धरन्नः उच्चैर्गतिर्जगति सिध्यति धर्मतश्चेत् तस्य प्रमाचवचनैः कृतकेतरैश्चेत् तेषाम् प्रकाशनदशा च महीसुरैश्चेत् तानन्तरेण निपतेत् क्वनुमत्प्रणामः दद्यानुबन्धरसमिश्रितपद्यसूक्तिः हृद्या हि वाद्यकलया कलितेव गीतिः तस्माद्दधातु कविमार्गजुषाम् सुखाय चम्पूप्रबन्धरचनाम् रसनामदीया वाल्मीकिगीतरघुपुङ्गवकीर्तिलेशैः तृप्तिम् करोमि कथमप्यधुना बुधानाम् गङ्गाजलैर्भुवि भगीरथयत्नलब्धैः किन्तर्पणम् न विदधाति नरः पितॄणाम्। बालकाण्डस्य आदौ ग्रन्थकर्तुः भोजराजस्य प्रास्ताविकवचनानि अधीतवन्तः। तत्र लक्ष्मीं तनोतु नितराम् इत्यादि प्रथमः मङ्गलश्लोकः, तत्र गणेशस्य प्रार्थना विधीयते, आशीर्वादरूपकं मङ्गलं, हैरम्बम् अङ्घ्रिद्वयं, नः नितरां लक्ष्मीं तनोतु, सम्पदभिवृद्धिं करोतु इत्येवं प्रथमः श्लोकः। ततः उच्चैर्गतिर्जगति सिध्यति धर्मतश्चेत् इत्यनेन वेदाध्यायिनां श्रेयोहेतूनां विप्राणां नमस्कारः क्रियते। जगति उन्नतस्थानम् अथवा उन्नतागतिः धर्माचरणेन सिध्यति, तस्य प्रमा धर्मस्य यथार्थानुभवः कृतकेतरैः वचनैः अर्थात् वेदवाक्यैः भवति। तेषाम् प्रकाशनदशा, तेषाम् वेदवाक्यानाम् ज्ञानम् पाठतः एवम् अर्थतः उभयथापि ज्ञानम् महीसुरैः भवति। तानन्तरेण, तान् विना कुत्र मम प्रणामः पतेत् इति काक्वा विप्राणाम् नमस्कारम् विधत्ते भोजः। ततः अस्य चम्पूप्रबन्धस्य सौन्दर्यम् वर्णयति। गद्यानुबन्धरसमिश्रितपद्यसूक्तिः हृद्या हि वाद्यकलया कलितेव गीतिः, यथा वाद्यैः मिश्रितं गानम् अत्यन्तं रमणीयं भवति, एवं गद्येन मिश्रितस्य पद्यस्य हृद्यत्वं भवति। तेन कारणेन अहमिदानीं चम्पूप्रकारकं काव्यं रचयामि इति प्रतिज्ञाय वाल्मीकिगीतरघुपुङ्गवकीर्तिलेशैः तृप्तिं करोमि कथमप्यधुना बुधानाम्। वाल्मीकिना रामस्य चरितम् अत्यन्तं सम्यक् वर्णितम्। तत्र केचन अंशान्, कांश्चन अंशान् स्वीकृत्य अहं कथञ्चित् सहृदयानां सन्तोषं जनयितुं प्रयते इति कथयति। तत्र दृष्टान्तमपि वदति, गङ्गाजलैर्भुवि भगीरथयत्नलब्धैः किं तर्पणं न विदधाति नरः पितॄणाम्। भगीरथः महता प्रयत्नेन पितॄणां सद्गति साधनार्थं गङ्गां भूलोकमानीतवान्। अधुना तु सर्वे नराः गङ्गाजलम् उपयुज्य स्वपितॄणां तर्पणं कुर्वन्ति। एवमेव वाल्मीकिना आदौ रामायणकथा भूलोके अवतारिता, सर्वेऽपि कवयः तां कथाम् उपयुज्य स्वमत्यनुगुणं, स्वप्रतिभानुगुणं श्रोतॄणाम् आनन्दं कर्तुं प्रयतन्ते इत्यत्र विशेषः कोऽपि नास्ति, आश्चर्यं किमपि नास्ति इति कथयति। अधुना वस्तुतः कथायाः आरम्भः क्रियते तेन। अनुवक्तुं इच्छन्ति केपि शारदा भगिनी वाचं निशम्य भगवान्
वाचं निशम्य भगवान्
सतु नारदस्य प्राचेतसः प्रवचसाम्
प्रथमः कवीनाम्
माध्यन्दिनाय नियमाय
महर्षिसेव्याम्
पुण्यामवापतमसाम्
तमसान्निहन्त्रीम्
वाचं निशम्य भगवान्
सतु नारदस्य
प्राचेतसः प्रवचसाम् प्रथमः कवीनाम् माध्यन्दिनाय नियमाय महर्षिसेव्याम्
पुण्यामवापतमसाम् तमसान्निहन्त्रीम्
अनेन कथारम्भः भवति रामायणकथायाः. तत्र वाल्मीकिमहर्षिः नारदेन कथितां रामकथां श्रुत्वा ततः माध्यान्निकं कर्तुं तमसानदीं गच्छति इत्येवं कथायाः आरम्भं करोति भोजः. पदच्छेदं कर्तुं प्रयतताम्.
वाचं निशम्य भगवान् सः तु नारदस्य प्राचेतसः प्रवचसाम् प्रथमः कवीनाम् माध्यन्दिनाय नियमाय महर्षिसेव्याम् पुण्याम् अवाप तमसाम् निहन्त्रीम्.
सम्यक्, धन्यवादः. सो देर् इस् नाट् मच् इन् पदच्छेद. पृथक् पृथक् पदानि एव सन्ति प्रायेण. वाचं निशम्य भगवान् सः तु एतत् शब्दस्य तच्छब्दस्य च हलिपरे विसर्गलोपः भवति. सः तु इति नारदस्य प्राचेतसः प्रवचसाम् प्रथमः कवीनाम् माध्यन्दिनाय नियमाय महर्षि सेव्याम् एकत्रैव समासः अस्ति. पुण्याम् अवाप तमसाम् निहन्त्रीम् इति पदच्छेदः. तत्र क्रियापदम् भवति अवाप. पुण्याम् अवाप इत्यस्य आप् धातोः प्राप्तवान् इत्यर्थः, गतवान् इति अस्मिन् प्रसङ्गे अर्थः. अवाप कः? अवाप किम्? अवाप तमसाम्. पुण्याम् अवाप तमसाम् इत्यस्ति तमसा इति नदी, तमसा नद्याः समीपे एव वाल्मीकि महर्षेः आश्रमः, अतः समीपस्थां तमसा नाम्नीं नदीं प्राप्तवान्, तत्र गतवान् इत्यर्थः। कीदृशीं तमसां, सा तमसा नदी कीदृशी इत्यत्र विशेषणत्रयं दीयते, महर्षिसेव्यां पुण्यां तमसां निहन्त्रीम् इति त्रीणि विशेषणानि सन्ति तमसायाः, तमसा नद्याः। कीदृशी तमसा नदी, महर्षिसेव्यां, महर्षिभिः श्रेष्ठैः ऋषिभिः सेव्या, सेव्यते नाम आश्रीयते, आश्रयितुं योग्या। किमर्थं महर्षयः नदीं आश्रयन्ति? अनुष्ठानार्थं, तेषां प्रातः मध्याह्ने सायम् इति दिने त्रिवारं स्नानं सन्ध्यावन्दनम् अर्घ्यप्रदानम् इत्यादि कार्याणि करणीयानि, तदर्थं तत्र गच्छन्ति श्रेष्ठाः महर्षयः, न केवलं वाल्मीकिः, अन्येपि महर्षयः गच्छन्ति इत्यर्थः। महर्षिसेव्यां, ऋषिप्रवरैः आश्रयितुं योग्या तां, तादृशीं तमसाम् अवाप। पुनः कीदृशीं? पुण्याम्, अत्यन्तं पावनीम्, सो वेरि सीक्रेड्, पावनीं तमसाम् अवाप। तृतीयं विशेषणमस्ति तमसां निहन्त्रीम्। अत्र तमस् शब्दस्य षष्ठी विभक्तिः, तमः तमसी तमांसि, तस्य षष्ठी विभक्तौ तमसाम् इति अज्ञानानां, निहन्त्रीं विनाशिनीं, तमः नाम अन्धकारः, अन्धकारस्य नाशयित्री इत्यर्थः। कीदृशः अन्धकारः? अज्ञानरूपः अन्धकारः इत्येवं तमसां निहन्त्रीम् इत्यस्य, तमशब्दस्य अत्र अज्ञानम् इत्यर्थः क्रियते व्याख्याकृद्भिः। तमसां निहन्त्रीम् अथवा तमोगुणस्य नाशिनीम् इत्यपि वक्तुं शक्यम्। व्याख्याकर्त्रा अज्ञानम् इति दीयते, नद्यां स्नानादिकरणेन तमोगुणस्य क्षयः भवति इत्यपि वक्तुं शक्यम्। अत्र तमसां तमसाम् इति द्विवारम् उच्यते, तत्र प्रथमवारं तमसाम् इत्यस्य तमसा नदीम् इत्यर्थः, द्वितीयवारं तु तमसां तमोगुणस्य अथवा अन्धकाराणाम्, अज्ञानरूपस्य अन्धकारस्य नाशिनीम् इत्यर्थः। सो ट्वैस् हि यूसेस् इट्, सो दे आर् बोत् डिफ्रेण्ट् वर्ड्स् मीनिङ्ग् डिफ्रेण्ट् थिङ्ग्स्। सो किम् अभूत्? पुण्यां महर्षिसेव्यां, पुण्यां तमसां निहन्त्रीं, तमसाम् अवाप, ऋषिप्रवरैः आश्रितां, पावनीम् अन्धकारनाशिनीम् अथवा अज्ञानविनाशिनीं तमसा नदीं प्राप्तवान्, कः अथवा किमर्थम्? अस्तु, अत्र आदौ द्वितीयपादः स्वीकृतः। किमर्थम् अवाप, किं निमित्तम् इति चेत्, माध्यन्दिनाय नियमाय, माध्यन्दिनम् मध्ये भवम्, माध्यन्दिनम् इति उच्यते। सो माध्यन्दिनः नियमः, मध्याह्नकाले यः यत् अनुष्ठानं क्रियते, माध्याह्निकम् इत्युच्यते, मध्याह्ने यत् क्रियते तत् माध्याह्निकम्, स्नानं सन्ध्यावन्दनं च दिने त्रिवारम् अनुष्ठातव्यं भवति, प्रातः मध्याह्ने सायं च। इदानीं मध्याह्नकालस्य अनुष्ठानार्थं माध्याह्निकक्रियां कर्तुं तादृशीं तमसा नदीं प्राप्तवान् इति। कः अवाप, कः गतवान्? सः प्राचेतसः, प्रचेतसः अपत्यं पुमान्, प्राचेतसः प्रचेताः इति तस्य पिता, तस्य अपत्यत्वात् प्राचेतसः इति नामधेयं भवति वाल्मीकिमहर्षेः। वाल्मीकिः, सः वाल्मीकिः, सः इति प्रसिद्धिं द्योतयति इति व्याख्याकारः। कः वाल्मीकिः? सः इति साक्षादुक्तत्वात् यं सर्वे जानन्ति तादृशः वाल्मीकिः तमसा नदीं गतवान्। कीदृशः प्राचेतसः? प्राचेतसः इत्यस्य विशेषणद्वयं दीयते, भगवान् प्रवचसां कवीनां प्रथमः, भगवान् वाल्मीकिः ప్రవచసాం కవీనాం ప్రథమః వాల్మీకిః ఇతి. భగవాన్ పూజ్యః సః అత్యంతం ఉత్తమ గుణయుక్తః జ్ఞానయుక్తః మహర్షిః. పూజ్యః పూజ్యః ప్రాచేతసః. ప్రవచసాం కవీనాం ప్రథమః. ప్రవచసాం ప్రకృష్టాని వచాంసి ఏషాం. సో దే హూజ్ వర్డ్స్ ఆర్ ఎక్సలెంట్, దట్ ఇస్ పోయెట్స్, కవయః హూ పొసెస్ ఎక్సలెంట్ స్పీచ్. తాదృశాం కవీనాం ప్రకృష్ట గిరాం కావ్యకర్తృణాం ప్రథమః ఆద్యః. సో ద ఫస్ట్ అమంగ్ పోయెట్స్ హూ పొసెస్ ద గిఫ్ట్ ఆఫ్ ఎక్సలెంట్ స్పీచ్ ఇత్యర్థః. ఆదికవిః ఆదికవిః పూజ్యః వాల్మీకిః. మాధ్యందినాయ నియమాయ మహర్షి సేవ్యాం పుణ్యాం తమసాం నిహంత్రీం తమసాం తమసానదీం ప్రాప్తవాన్. మాధ్యాన్నికం కర్తుం భగవాన్ వాల్మీకిః తమసానదీం గతవాన్. కదా కదా అవాప ఇత్యత్ర ప్రథమమస్తి వాచం నిశమ్య. కస్య వాచం? నారదస్య. నారదస్య వాచం నిశమ్య. నారదస్య, నారదః సర్వైః జ్ఞాయతేవ త్రిలోక సంచారీ దేవర్షిః నారదః, తస్య వాచం గిరం వాక్యం నిశమ్య. నిశమ్య ఇత్యస్య శ్రుత్వా ఇత్యర్థః. నారదస్య వచనం శ్రుత్వా తచ్చ్రవణానంతరం మహర్షిః వాల్మీకిః మాధ్యాహ్నిక క్రియాం కర్తుం పావనీం మహర్షి సేవ్యాం అజ్ఞాన వినాశినీం తమసా నదీం ప్రాప్తవాన్ ఇది శ్లోకస్య సారః. అత్ర రామాయణ ప్రసంగం కించిత్ ఆవర్తయామః. రామాయణే కథం ఉచ్యతే. రామాయణస్య ఆరంభః ఏవమస్తి: తపస్వాధ్యాయ నిరతం తపస్వీ వాగ్విదాం వరం నారదం పరిపప్రచ్ఛ వాల్మీకిర్ మునిపుంగవం. నారదః బ్రహ్మణః ప్రేరణయా వాల్మీకేః ఆశ్రమం ఆగచ్చతి. తత్ర వాల్మీకిః నారదం పృచ్చతి ఇత్యేవ వాల్మీకి రామాయణస్య ఆరంభః. అయం ప్రథమః శ్లోకః. తపస్వాధ్యాయ నిరతం వాగ్విదాం వరం నారదం తపస్వీ వాల్మీకిః పరిపప్రచ్ఛ. పరిప్రశ్నం కృతవాన్, న కేవలం పృష్టవాన్, బహుధా పృష్టవాన్ ఇత్యర్థః. కిం పృష్టవాన్? కోన్వస్మిన్ సాంప్రతం లోకే గుణవాన్ కశ్చ వీర్యవాన్, ధర్మజ్ఞశ్చ కృతజ్ఞశ్చ సత్యవాక్యో దృఢవ్రతః ఇత్యేవం షోడశ గుణాః తేన కీర్త్యంతే వాల్మీకిన. అస్మిన్ సాంప్రతం లోకే, సాంప్రతం అధునా భూలోకే, ఏతైః శ్రేష్ఠైః గుణైః యుక్తః కః? కోన్వస్మిన్ సాంప్రతం లోకే గుణవాన్ కశ్చ వీర్యవాన్? గుణః అపి భవతి, వీర్యం భవతి, ఏవం ఉత్తమం చారిత్రం సత్యం ఇత్యేవం బహవః గుణాః ఉచ్యంతే. తత్సర్వం ఉక్త్వా ఏతాదృశ గుణయుక్తః కశ్చిన్ మనుష్యః అస్తి చేత్ కృపయా వదతు ఇతి వాల్మీకిః నారదం పృచ్చతి. తదా నారదః కథయతి: మునే వక్ష్యామ్యహం బుద్ధ్వా తైర్యుక్త శ్రూయతాం నరః ఇక్ష్వాకు వంశ ప్రభవో రామో నామ జనైశ్రుతః ఇత్యేవం అహం వక్ష్యామి. తైర్యుక్తః భవతా యే యే గుణాః కీర్తితాః తైః సర్వైః గుణైః యుక్తః ఏకః నరః అస్తి. సో దేర్ ఇస్ వన్ మ్యాన్ హూ ఇస్ ఎండోర్డ్ విత్ ఆల్ ద క్వాలిటీస్ దట్ యు హావ్ నరేటెడ్. సో అహం కథయామి ఇత్యుక్త్వా రామస్య కథాం ఆరభతే నారదః. ఇక్ష్వాకు వంశ ప్రభవః రామో నామ జనైశ్రుతః ఇత్యేవం. సో ద ఫస్ట్ సర్గ ఆఫ్ ద వాల్మీకి రామాయణ, విచ్ ఇస్ కాల్డ్ ద సంక్షేప రామాయణం, దెర్ ఆర్ 100 శ్లోకస్ ఇన్ విచ్ నారద బ్రీఫ్లీ నరేట్స్ ద స్టోరీ ఆఫ్ రామ. సో పూర్ణం ఉచ్యతే. సో స్టార్టింగ్ ఫ్రమ్ ద పట్టాభిషేక విఘాత టిల్ రావణవధ, హి టెల్స్ ద ఎంటైర్ స్టోరీ ఆఫ్ ద రామాయణ ఇన్ బ్రీఫ్. సో దెన్ ద నెక్స్ట్ సర్గ, ద ద్వితీయ సర్గే రామాయణే ఉచ్యతే: సముహూర్తం గతే తస్మిన్ దేవలోకం మునిస్తదా జగామ తమసా తీరం జాహ్నవ్యా అవిదూరతః. తస్మిన్ గతే, దేవలోకం గతే, సో ఆఫ్టర్ నారద వెంట్ బ్యాక్, నారదః దేవలోకం ప్రతి గతవాన్. తతః మునిః నామ వాల్మీకిః తమసా తీరం జగామ, तमसायाः तीरं गतवान्। स तदेव भोजराजेन उच्यते वाचं निशम्य, नारदस्य वाचं निशम्य। सो हेविङ्ग् हर्ड् नारद नरेटिङ्ग् द एण्टैर् रामायण, ततः तमसा तीरं गतवान् जाह्नव्या अविदूरतः। सो विच् वास् वेरि क्लोस् टु द गङ्गा इति रामायणे अस्ति। सो तत्र तमसायाः वर्णनमपि बहु सुन्दरं क्रियते। अकर्दममिदं तीर्थं भरद्वाज निशामय, रमणीयं प्रसन्नाम्बु सन्मनुष्य मनोयथा। सो दिस् इस् वन् आफ् द मोस्ट् फेमस् एक्साम्पल्स् विच् इस् कोटेड् आफन् फार् उपमा, अ वेरि ब्यूटिफुल् अण्ड् अ नेचुरल् उपमालङ्कार इन् द ओरिजिनल् रामायण। सो अकर्दममिदं तीर्थं, सो इदं तीर्थं तमसा नदी अकर्दमम्, सो इट् इस् वेरि वेरि प्यूर् अण्ड् क्लीन्। कथम् इति चेत् रमणीयं प्रसन्नाम्बु सन्मनुष्य मनोयथा। सो द वाटर् आफ् द तमसा इट् इस् रमणीय, एक्स्ट्रीम्ली ब्यूटिफुल् अण्ड् प्रसन्न प्लेसेण्ट्, सन्मनुष्य मनः, लैक् द mind of a good man, like the heart of a good man. So like it is pure, guileless and extremely good, tatha tamasa nadyaha jalam bhavati iti tatra uchyate, ramaniyam prasannambu sanmanushya manoyatha. Okay, so ayam ramayanasya prasangaha, tadeva bhojena sankshepena kathyate, नारदस्य वचनं श्रुत्वा, अर्थात् रामस्य कथां श्रुत्वा अनन्तरं वाल्मीकिमहर्षिः तमसां गच्छति। कथम् अन्वयः? प्रवचसां कवीनां प्रथमः सः भगवान् प्राचेतसः, नारदस्य वाचं निशम्य माध्यन्दिनाय नियमाय महर्षिसेव्यां पुण्यां तमसां निहन्त्रीं तमसाम् अवाप इति अन्वयः। तात्पर्यं किम्? आदिकविः पूज्यः वाल्मीकिः नारदमुखात् रामकथां श्रुत्वा माध्याह्निकक्रियां कर्तुम् ऋषिप्रवराश्रितां पावनीम् अज्ञानविनाशिनीं तमसा नदीं गतवान् प्राप्तवान् इत्यर्थः श्लोकस्य। अत्र पदानि पश्यामः। अवाप, आप्ल प्राप्तौ इति धातुः, आप्नोति इति धातुः, पञ्चमगणस्य धातुः, परस्मैपदी। तस्य लिट्लकारे प्रथमपुरुषे एकवचनम् अवाप, अवापतुः, अवापुः, लिट्लकारः प्रथमपुरुषे एकवचनम्। निशम्य, सो क्रियापदद्वयमस्ति, एकम् अवाप, द्वितीयं निशम्य, श्रुत्वा इत्यर्थः। शमु उपशमे इति धातुः, चतुर्थगणस्य धातुः, शाम्यति इति। तस्य नी इति उपसर्गः ल्यबन्ताव्ययम्, ल्यप् इति कृत् प्रत्ययः, तस्य अव्ययं भवति निशम्य इति। वाचम्, वाच् चकारान्तः स्त्रीलिङ्गशब्दः, वाक् वाचौ, वाचः वाचम्, द्वितीया विभक्तौ एकवचनम्। भगवान्, भगवत् शब्दः, भगवान् भगवन्तौ भगवन्तः, भगवन्तं भगवन्तौ भगवतः, तकारान्तः पुल्लिङ्गः, प्रथमाविभक्तौ एकवचनं भगवान् इति। भगः अस्य अस्ति इति भगवान्, भग शब्दात् मतुप् इति तद्धितप्रत्ययः क्रियते। भगः, भगः नाम ऐश्वर्यम् इत्युच्यते, अष्ट ऐश्वर्यं, तद्युक्तः भगवान् इति पदस्य निष्पत्तिः। स तु नारदस्य प्राचेतसः, पूर्वमपि उक्तं प्रचेतसः अपत्यं पुमान् इति, अपत्यार्थे प्रचेतस् इति शब्दात् अण् इति तद्धितप्रत्ययः क्रियते। प्राचेतसः, पाण्डोः अपत्यं पाण्डवः, कुरोः अपत्यं कौरवः, प्रथायाः अपत्यं पार्थः, वसुदेवस्य अपत्यं वासुदेवः। सो अण् इस् वन् आफ् द मोस्ट् कामन् अपत्यार्थक तद्धित प्रत्यय। सो अत्रापि स एव प्रत्ययः प्राचेतसः। अकारान्तः पुल्लिङ्गशब्दः, प्रचेतस् इति सकारान्तः, अणिकृते प्राचेतसः इति अकारान्तः पुल्लिङ्गः। प्रवचसाम्, ప్రకృష్టాని వచాంసి ఏషాం తే ప్రవచస ప్రవచస్ సకారాంత పుల్లింగ షష్ఠీ విభక్తౌ బహువచనం కవీనాం ఇత్యస్య విశేషణం అత షష్ఠీ విభక్తౌ బహువచనం తాదృశానాం కవీనాం ప్రథమః సో ప్రథమః కవీనాం జ్ఞాయతే మాధ్యందినాయ మాధ్యందినం సో మధ్యే భవః మాధ్యందినః ఇత్యుచ్యతే మధ్య ఇతి శబ్దాత్ తద్ధిత ప్రత్యయః క్రియతే ఆదేశః అపి భవతి మధ్యందినః నామ మాధ్యందినః నామ మధ్యే భవః సో దట్ విచ్ ఇస్ ఇన్ బిట్వీన్ ఇత్యర్థః సో మాధ్యందినాయ చతుర్థీ విభక్తౌ ఏకవచనం మహర్షి సేవ్యాం మహర్షిభిః సేవ్యా తాం ఓకే తత్పురుష సమాసః పుణ్యాం అవాప తమసాం సో ద ఫస్ట్ తమసా మీనింగ్ తమసా నదీ ఇత్యత్ర ఆకారాంతః స్త్రీలింగః ద్వితీయా విభక్తిః ఏకవచనం సో ద్వితీయవారం పునః తమసాం నిహంత్రీం ఇత్యత్ర అంధకారార్థే సకారాంతః నపుంసకలింగః తమః శబ్దః షష్ఠీ విభక్తౌ బహువచనం ఇదం నిహంత్రీ ని ఉపసర్గః హన్ ధాతుః కృచ్ ఇతి ప్రత్యయః నిహంతా ఇతి పుల్లింగే నిహంత్రీ ఇతి స్త్రీలింగే సో తృచ్ ప్రత్యయః తస్మాత్ స్త్రీలింగే నీప్ ఇతి స్త్రీ ప్రత్యయః క్రియతే నిహంత్రీ సో సర్వత్ర భవతి కర్త్రీ భోక్త్రీ వక్త్రీ సో ఆల్ త్రిజంతస్ బికమ్ ఈకారాంత ఇన్ స్త్రీలింగ సో ఈకారాంత స్త్రీలింగః ద్వితీయా విభక్తౌ ఏకవచనం సో ఆల్ దీస్ ఆర్ విశేషణస్ టు తమసాం సో ప్రశ్నాః సంతి వా ఎనీ క్వశ్చన్స్ రిగార్డింగ్ దిస్ శ్లోక వాచన్ నిశమ్య భగవాన్ సతు నారదస్య ప్రాచేతసః ప్రవచసాం ప్రథమః కవీనాం మాధ్యందినాయ నియమాయ మహర్షి సేవ్యాం పుణ్యామవాప తమసాం తమసాం నిహంత్రీం అత్ర ఏకః ప్రశ్నః అస్తి పద్యేషు కతి పాదాః సంతి తావంతి వాక్యాని భవితవ్యాని వా క్వశ్చన్ ఇస్ సో ఇస్ ఇట్ ఎ రూల్ దట్ ద నంబర్ ఆఫ్ వాక్యాస్ ఆర్ ద నంబర్ ఆఫ్ క్రియాపదాస్ ఇన్ అ పద్య షుడ్ బి ద సేమ్ యాజ్ ద నంబర్ ఆఫ్ పాదాస్ నాట్ ఎట్ ఆల్ ఐ మీన్ దర్ ఇస్ నో రిలేషన్ ద పాద విభాగ ఇస్ ఓన్లీ ఫర్ ద మీటర్ ఓకే ఇట్ హాస్ నో కనెక్షన్ విత్ ద వాక్య ద హోల్ పోయమ్ కుడ్ బి వన్ సెంటెన్స్ like we saw in the first shloka lakshmim tanot nitaram the whole thing is just one sentence similarly this shloka the whole thing is just one sentence it could be two sentences or it could be 3-4 or there could be many or there are even cases where 3 or 4 shlokas together form a single sentence there is no kriyapada in a shloka at all so 2 shlokas together or 4 shlokas together form one sentence. So there is no rule as to what is the number of kriyapadas or the number of sentences, I mean grammatical sentences per shloka. Okay. Okay. So ekaha prashnaha, where can we find the name of the Ashta Ishwaryas for Bhaga? Any kosha should give you if you look at the Shabda Kalpadruma or the Vachaspatya. Or even the commentaries. It's a very popular this one. So most of the koshas, any of the Samskrita koshas will have the names. Okay. So next, there is one more question. Should Dina be included in the Vigraha Vakya of Madhyan Dinaha? No. There is only Madhya Shabdasya Madhyan Dina Adeshaha. So it does not mean actually, I mean, there is no Dina Shabda there. The Vigraha is only Madhye Bhava. The Madhye Shabda gets the Adesha as Madhyandina. So Madhye Bhavaha Ityeva Vigraha. Madhyandina Shabdas. Okay. Any other questions? Okay. Agre Prathamam Gadyam Asti. అస్య గ్రంథస్య So the first Gadya of the Champu Ramayana. Veena, Krishna Hastiva. Sorry, you have to unmute yourself.
Am I audible?
Yeah. Tell me. Yes. Do you have a question or did you volunteer for this? Hello? Nashruyate? Lost your audio after the initial one. No? Okay. So, I think she lost connection. So, we'll see the Gadya.
Tatra kanchana krauncha mithunadekam panchasharaviddhamapi vyadhenanuviddhan nidhyayato baddhanukampasya bhagavato valmikeir vadanaravinda chandomai kachidevan nissasara saraswati.
So, that is how the Gadya is read, okay? I mean, without a break in between. It is not like, I mean, the Gadya of Kavyas, it is not like, I mean, reading a usual story where you give breaks and read it. That is also the Chamatkara of it, you know. I mean, when you read it together in one go, the Shabdalankara, you will be able to enjoy it better, okay? So, there are even longer Gadyas. This is a very small Gadya compared to the usual ones. So, if you have any time listened to any of these Gadyas, there are some even in this. Later on, we'll see the Varnana of Ravana and all. It's very beautiful just to listen to it. It's the Ojas Samasa Bhoyastum Etat Gadyasya Lakshanam. So, Gadya is of two kinds. One is, I mean, you know, the simple Samskrita which we read today, say for normal stories, that's a different kind. But in a Kavya, the Gadya portion is always very forceful. It has many Shabdalankaras and long Samasas and so on. Okay. So reading Gadya is also a different kind of delight, actually. So for now, I will read it. Maybe you all can practice reading it later. So I'll read again and then Padachedam Kurmaha.
Tatra kanchana krauncha mithunadekam panchashara viddham api vyadhena anuviddhan nidhyayato baddhanukampasya bhagavato valmikeir vadanaravinda chandomai kachidevan nissasara saraswati.
Padachedam kurvanti, Kethi. So anybody wants to try splitting the words? Sudha, Bhagini.
Okay.
Ha.
Tatra kamchana krauncha mitunat ekam panchashara viddham api vyadena viddham nidhyayatah baddha anukampasya bhagavatah valmikehe vadanaravindat chandomayi kachit evam Nisasara Saraswati.
Samyak. Nisasara Saraswati.
Krauncha ghatinam vyadham prati valmikehe shapaha atra uchyate.
So this it narrates the shapa of Valmiki to the hunter who killed the krauncha pakshis. Okay. So tatra kanchana krauncha mithunat ekam pancha shara viddham api vyadhena anuviddham nidhyayatah baddha anukampasya bhagavatah valmikehe vadana aravindat chandomayi kachit evam nissasara saraswati. Ekam vakyam, saralameva vakyam. Tatra, tatra kutra gatavan, tamasa nadim gatavan, tatra nama tamasa nadyaha tire. Krauncha mithunat, so kanchana, so sam kanchana iti anirdishtarthe.
So the chit and chana, they are added to the kim shabda
டு டினோட் அன்சர்டன்டி. கஷ்டித் சம்படி, ஓகே, காச்சித் கிஞ்சித், யூ கேன் டூ இட் இன் ஆல் த்ரீ லிங்கஸ் இன் ஆல் விபக்திஸ். ஓகே, சோ கஷ்டித் கஞ்சித் கேனச்சித் கஸ்மைச்சித் கஸ்யச்சித் கஸ்மிம்ஷ்சித். சோ யூ கேன் டூ இட் இன் ஆல் விபக்திஸ் ஆல் லிங்கஸ். ஓகே, ஏகவச்சனம் அஃப்கோர்ஸ் நாட், ஆர் ஈவன் பகுவச்சன கௌச்சித் கேச்சித் தட் இஸ் ஆல்சோ பாசிபிள் கேபியஷ்சித். சோ ஆல் லிங்கா வச்சன யூ ஜஸ்ட் ஆட் த சித் அண்ட் சனா டு இண்டிகேட் அன்சர்டன், சம்திங் ஏதோ ஒன்னு. சோ இன் தட் சென்ஸ் இட் இஸ் ஆடட். சோ கஞ்சன க்ரௌஞ்ச மிதுனாதேகம், க்ரௌஞ்ச பக்ஷி பக விசேஷ, பகா இது கஷ்டித் ஜல பக்ஷி. சோ தத் விசேஷ எ கைண்ட் ஆஃப் கிரேன் ஆர் பக்க இஸ் கால்ட் அஸ் க்ரௌஞ்ச, பர்டிகுலர் ஸ்பீஷீஸ் ஆஃப் வாட்டர் பர்ட். சோ மிதுனம் நாம த்வந்த்வம் அப்பேர். சோ க்ரௌஞ்ச மிதுனாத், சோ அப்பேர் ஆஃப் க்ரௌஞ்சஸ் ஃப்ரம் தெம் ஏகம், சோ ஒன் ஆஃப் தெம். ஓகே, சோ போஜ டஸ் நாட் மென்ஷன் இட், ராமாயணா ஸ்பெசிபிகலி சேஸ் இன் தஸ் த புமாம்சம் the male bird among the pair of crouches. So kanchana, so the bhavaja indicates it by the pullinga. So kanchana ekam, so some a pair of crouncha mithuna, so one among a certain pair of crouches. Crouncha mithunad ekam panchashara viddham, panchasharaha nama manmathaha, மன்மதஸ்ய பஞ்சபாணாஹ புஷ்பபாணாஹ இதி ப்ரதீதிஹி. அதஹ பஞ்சபாணஹ பஞ்சசரஹ இத்யுக்தே மன்மதஹ தேன வித்தம். சோ வித்தம் இஸ் ஹிட், லிட்டரலி பீயிங் ஹிட் பை அன் ஆரோ. சோ மன்மதேன ஆஹதம் இத்யர்த்தஹ, காமபீடிதம் அபி வியாதேன அனுவித்தம். சோ ஹி இஸ் டூயிங் எ சமத்கார. சோ த பேர்ட் இஸ் ஆல்ரெடி ஹிட் பை த ஆரோஸ் ஆஃப் காம அண்ட் த வியாத இஸ் ஹிட்டிங் இட் வித் அனதர் ஆரோ அனுவித்தம். So repeatedly being targeted ityarthah atasphurati vyadhena vyadhah kaschin nishadah tena anuviddham punah prahratam panchashara viddham api vyadhena anuviddham nidhyayatah pashyatah nidhyayati ityasya pashyati ityarthah pashyatah baddhanukampasya பத்தா அனுகம்பா யஸ்ய அனுகம்பா தயா கருணா இத்யர்த்தஹ உத்பன்ன கருணஸ்ய. சோ தௌ க்ரௌஞ்ச பக்ஷிணௌ மஹதா சந்தோஷேண கலரவம் குருதஹ ததா கஷ்சித் வியாதஹ தம் புமாம்சம் ஹந்தி ததா ஸ க்ரௌஞ்சி அத்யந்தம் கருணம் ரோதிதி தத் ஸ்ருத்வா வால்மீகி மஹர்ஷேஹ கருணா உத்பன்ன பத்தானுகம்பஸ்ய பகவதஹ வால்மீகேஹே மஹர்ஷேஹே பிராசேதசஸ்ய வதனா அரவிந்தாத், வதனம் அரவிந்தம். சோ வதனம் நாம முகம், அரவிந்தம் கமலம் முக கமலாத். சந்தோமயி சந்தஹ நாம விருத்தம். சோ இன் திஸ் கேஸ் த சந்தஸ் மீன்ஸ் அ மீட்டர். சோ வேர்ட் சந்தஸ் ஹஸ் மெனி மீனிங்ஸ். இட் இஸ் யூஸ்ட் காமன்லி டு மீன் த வேதாஸ் அண்ட் there are other things. In this case it means anushtup chandasi nibaddha ityartha chandomayi kachit. So atra tu kachit ityasya apurva, so which was unheard of before because this was the first metrical composition. So kachit evam, so he repeats that shloka later. Vakshyamana ritya nissasara nihi sasara நிர்கதா நிஜ பிரயத்னம் வினா பகிர்யாத இட் எமர்ஜ்ட். சோ வால்மீகி டிட் நாட் டூ இட் டெலிபரேட்லி, சோ ஜஸ்ட் பிகாஸ் ஆஃப் ஹிஸ் கருணா இட் இமர்ஜ்ட் அவுட் ஆஃப் வால்மீகி வித்தவுட் எனி இஃபோர்ட். சோ நிஸ்ஸசார நிஸ்ஸரதி இஸ் டு ஊஸ் அவுட் ஆர் டு எமர்ஜ் அவுட் பை இட் செல்ஃப் இத்யர்த்தஹ. சோ நிஸ்ஸசார கா நிஸ்ஸசார சரஸ்வதி வாக் நிஸ்ஸசார. சோ கஞ்சன க்ரௌஞ்ச மிதுனாதேகம் பஞ்சசர வித்தம் அபி வியாதேனானுவித்தம் நித்யாயதஹ. சோ க்ரௌஞ்ச பக்ஷிஷு ஏகம் மன்மதாஹதம் புனஹ வியாதேன பிரஹ்ருதம் த்ருஷ்ட்வா உத்பன்ன கருணஸ்ய பகவதஹ வால்மீகேஹே முகாத் ಅಪೂರ್ವ ಛಂದೋಬದ್ಧ ಕಾಚಿದ್ ವಾಣಿ ಬಹಿರಾಗತ ಇತ್ಯರ್ಥ. ಸೊ ಸೀಯಿಂಗ್ ಒನ್ ಅಮಂಗ್ ದ ಪೇರ್ ಆಫ್ ಕ್ರೌಂಚರ್ಸ್ ವಿಚ್ ವಾಸ್ ಆಲ್ರೆಡಿ ಲವ್ ಸ್ಟಕ್, ಸೊ ಬೀಯಿಂಗ್ ಹಿಟ್ ಅಗೇನ್ ಬೈ ದ ಆರೋ ಆಫ್ ದ ವ್ಯಾಧ ಆಫ್ ದ ಹಂಟರ್, ಸೊ ದ ಕಂಪ್ಯಾಷನ್ ಅರೋಸ್ ಇನ್ ದ ಹಾರ್ಟ್ ಆಫ್ ವಾಲ್ಮೀಕಿ. ಸೊ ಬಿಕಾಸ್ ಆಫ್ ವಿಚ್ ದಿಸ್ ವರ್ಡ್ಸ್, ಸೊ ಸರ್ಟನ್ ವರ್ಡ್ಸ್ ವಿಚ್ ವರ್ ಸೆಟ್ ಟು ಮೀಟರ್ ದೇ ಎಮರ್ಜ್ ಫ್ರಮ್ ಹಿಸ್ ಮೌತ್ ಇತ್ಯರ್ಥ. ಎತ್ತದ್ ಬದ್ಧಾನುಕಂಪಸ್ಯ ಇತ್ಯಸ್ಯ ಅತ್ಯಂತಂ ಪ್ರಾಮುಖ್ಯಮಸ್ತಿ ರಾಮಾಯಣೆ. ತತ್ರ ಬಾಲಕಾಂಡೇ ಉಚ್ಯತೆ ಋಷೇರ್ ಧರ್ಮಾತ್ಮನಸ್ತಸ್ಯ ಕಾರುಣ್ಯಂ ಸಮಪದ್ಯತ. ಸೊ ದಿಸ್ ಕರುಣ ರಸ ದ ಕಾರುಣ್ಯ ಇಸ್ ದ ಫೌಂಡೇಶನ್ ಆಫ್ ದ ರಾಮಾಯಣ. ದ ಹೋಲ್ ರಾಮಾಯಣ ಇಸ್ ಬೇಸ್ಡ್ ಆನ್ ಕರುಣ. ಸೊ ಧರ್ಮಾತ್ಮನಃ ಋಷೇಹೇ ಕಾರುಣ್ಯಂ ಸಮಪದ್ಯತ. ಸೊ ತದೇವ ಉಚ್ಯತೆ ತತಃ ಕರುಣವೇದಿತ್ವಾತ್ ಅಧರ್ಮೋಯಂ ಇತಿ ದ್ವಿಜಃ. ಸೊ ಕರುಣವೇದಿತ್ವ ಬಿಕಾಸ್ ಆಫ್ ಹಿಸ್ ಕಂಪ್ಯಾಷನೇಟ್ ಹಾರ್ಟ್ ಹಿ ಥಾಟ್ ದಟ್ ಇಟ್ ವಾಸ್ ಅಧರ್ಮ ಫಾರ್ ದ ವ್ಯಾಧ ಟು ಕಿಲ್ ಅ ಕ್ರೌಂಚರ್ ವಿಚ್ ವಾಸ್ ಎಂಗೇಜ್ಡ್ ಇನ್ ಸ್ಪೋರ್ಟ್ ವಿತ್ ಇಟ್ಸ್ ಮೇಟ್. ತತಃ ಕರುಣವೇದಿತ್ವಾತ್ ಅಧರ್ಮೋಯಂ ಇತಿ ದ್ವಿಜಃ. ಸೊ ಪುನಃ ಉಚ್ಯತೆ ವಾಲ್ಮೀಕಿನಾ ಏವ ಕಥ್ಯತೆ ಶೋಕಾರ್ಥಸ್ಯ ಪ್ರವೃತ್ತೋ ಮೇ ಶ್ಲೋಕೋ ಭವತು ನಾನ್ಯಥ. ಸೊ ಹಿ ನೇಮ್ಸ್ ಹಿಸ್ ಕಾಂಪೋಸಿಷನ್ ಆಸ್ ಶ್ಲೋಕ ವೈ ಶೋಕಾರ್ಥಸ್ಯ ಪ್ರವೃತ್ತ. ಸೊ ಇಟ್ ಕೇಮ್ ಔಟ್ ಬಿಕಾಸ್ ಹಿ ವಾಸ್ ಬಿಕಾಸ್ ಆಫ್ ದ ಸ್ಯಾಡ್ನೆಸ್ ದ ಕಂಪ್ಯಾಷನ್ ವಿದಿನ್ ವಾಲ್ಮೀಕಿ, ದಟ್ ಇಸ್ ವೈ ಇಟ್ ಇಸ್ ಕಾಲ್ಡ್ ಅ ಶ್ಲೋಕ. ಓಕೆ, ಪುನಃ ಉಚ್ಯತೆ ಶೋಕ ಶ್ಲೋಕತ್ವಮಾಗತ. So that is also a famous name. The shoka itself became the shloka or the metrical thing. So it's a very common knowledge that most of the beautiful pieces, whether in music or in poetry, they emerge out of the sadness or compassion in the heart. Okay. So, Baddhanu Kampasya Bhagavato Valmikehe. That is the key factor in emerging of the first shloka. ಸೊ ತಾತ್ಪರ್ಯಮಸ್ತಿ ತಮಸಾ ತೀರೇ ಪರಸ್ಪರಂ ಸಂತೋಷೇಣ ರಮಮಾಣಯೋ ದ್ವಯೋಃ ಕ್ರೌಂಚಯೋಃ ಮಧ್ಯೆ ಏಕಂ ಪಕ್ಷಿಣಂ ವ್ಯಾಧೇನ ಪ್ರಹೃತಂ ದೃಷ್ಟ್ವಾ ಕ್ರೌಂಚ್ಯಾಃ ಆರ್ತನಾದಂ ಚ ಶ್ರುತ್ವಾ. ಸೊ ಹಿ ಡಸಂಟ್ ಮೆನ್ಷನ್ ಹಿಯರ್ ಬಟ್ ಇಟ್ ಇಸ್ ಆಲ್ಸೋ ದೇರ್. ಸೊ ಹಿಯರಿಂಗ್ ದ ಕ್ರೈಸ್ ಆಫ್ ದ ಮೇಟ್ ವಿಚ್ ಹ್ಯಾಡ್ ಲಾಸ್ಟ್ ಹರ್ ಮೇಟ್ ಉತ್ಪನ್ನ ಕರುಣಸ್ಯ ವಾಲ್ಮೀಕಿ ಮಹರ್ಷೇ ಮುಖಾತ್ ಛಂದೋಬದ್ಧ ಅಪೂರ್ವ ವಾಣಿ ನಿರ್ಗತ ಇತ್ಯರ್ಥ ಅಸ್ಯ ಗದ್ಯಸ್ಯ. ತತ್ರ ಕಂಚನ ಕ್ರೌಂಚಮಿಥುನಾದೇಕಂ ಪಂಚಶರವಿದ್ಧಮಪಿ ವ್ಯಾಧೇನಾನುವಿದ್ಧನ್ ನಿಧ್ಯಾಯತೋ ಬದ್ಧಾನುಕಂಪಸ್ಯ ಭಗವತೋ ವಾಲ್ಮೀಕೇರ್ ವದನಾರವಿಂದಾ ಛಂದೋಮಯಿ ಕಾಶಿದೇವನ್ ನಿಸ್ಸಸಾರ ಸರಸ್ವತಿ. ಸೊ ಯು ಕ್ಯಾನ್ ನೋಟ್ ದ ಶಬ್ದಾಲಂಕಾರ ಕಂಚನ ಕ್ರೌಂಚ ಪಂಚ. ಸೊ ಯು ಹ್ಯಾವ್ ದ ಇಂಚ ಇನಿಷಿಯಲಿ, ದೆನ್ ದ ಧಕಾರ ವ್ಯಾಧೇನ ವಿದ್ಧಮಪಿ ವ್ಯಾಧೇನಾನುವಿದ್ಧನ್ ನಿಧ್ಯಾಯತೋ ಬದ್ಧಾನುಕಂಪಸ್ಯ. ಸೊ ವದನಾರವಿಂದ ಛಂದೋಮಯಿ ಕಾಶಿದೇವನ್ ನಿಸ್ಸಸಾರ ಸರಸ್ವತಿ ದ ಸಕಾರ. ಸೊ ಎವ್ರಿವೇರ್ ಇಟ್ ಇಸ್ ದ ಅನುಪ್ರಾಸ, ದ ರಿಪಿಟಿಷನ್ ಆಫ್ ವ್ಯಂಜನಸ್ ವಿಚ್ ಗಿವ್ಸ್ ಬ್ಯೂಟಿ ಟು ದ ಗದ್ಯ. ಸೊ ಕಂಚನ ಕ್ರೌಂಚ ಮಿಥುನಾತ್ ಕ್ರೌಂಚಯೋ ಮಿಥುನಂ ತಸ್ಮಾತ್. ಸೊ ಕ್ರೌಂಚಯೋ ಮಿಥುನಂ ಕ್ರೌಂಚ ಮಿಥುನಂ ಷಷ್ಠಿ ತತ್ಪುರುಷ ಸಮಾಸ. ಪಂಚಶರ ವಿದ್ಧಂ ಪಂಚಶರಾಃ ಯಸ್ಯ ಸಹ ಪಂಚಶರಃ ಮನ್ಮಥಃ ಇತ್ಯರ್ಥಃ ಪಂಚಶರೇಣ ವಿದ್ಧಂ. ಸೊ ಪಂಚಶರಾಃ ಯಸ್ಯ ಸಹ ಇತಿ ಬಹುವ್ರೀಹಿ ಸಮಾಸಃ ಪಂಚಶರೇಣ ವಿದ್ಧಃ ಪಂಚಶರ ವಿದ್ಧಃ ತೃತೀಯ ತತ್ಪುರುಷಃ ತಂ ಪಂಚಶರ ವಿದ್ಧಂ. ಸೊ ವಿದ್ಧ ಇತ್ಯತ್ರ ವ್ಯಧ ತಾಡನೆ ಇತಿ ಧಾತುಃ ವಿಧ್ಯತಿ ಸೊ ಟು ಪಿಯರ್ಸ್ ಇತ್ಯರ್ಥಃ ತಸ್ಮಾತ್ ಕ್ತ ಪ್ರತ್ಯಯಃ ವಿದ್ಧಃ ವಿಚ್ ವಾಸ್ ಸ್ಟ್ರಕ್ ಕೃತ್ ಪ್ರತ್ಯಯಃ. ಸೊ ಕಂದರ್ಪೋ ದರ್ಪಕೋನಂಗಃ ಕಾಮಃ ಪಂಚಶರ ಸ್ಮರಃ ಇತಿ ಅಮರಕೋಶೆ. ಕಾಮಃ ಪಂಚಶರಃ ಸ್ಮರಃ ಕಂದರ್ಪಃ ದರ್ಪಕಃ ಅನಂಗಃ. ಸೊ ಆಲ್ ದೀಸ್ ಆರ್ ಪರ್ಯಾಯ ಪದಸ್ ಫಾರ್ ಪಂಚಶರ ವಿಚ್ ಇಸ್ ಮನ್ಮಥ. ನಿಧ್ಯಾಯತಃ ಪಂಚಶರ ವಿದ್ಧಮಪಿ ವ್ಯಾಧೇನ ವ್ಯಾಧಃ ಜ್ಞಾಯತೆ ತೃತೀಯ ವಿಭಕ್ತೌ ಏಕವಚನಂ. ಅನುವಿದ್ಧ ಇಸ್ ದ ಸೇಮ್ ಧಾತು. ನಿಧ್ಯಾಯತಃ ನಿಧ್ಯಾಯತ್ ತಕಾರಾಂತಃ ಪುಲ್ಲಿಂಗಃ षष्ठी विभक्तौ एकवचनम् नी इति उपसर्गः ध्येय चिन्तायाम् इति धातुः ल्यप् सॉरी दिस इज नॉट ल्यप् दिस इज शत्रु प्रत्यय निध्याय इज ल्यप् निध्यायतः इज शत्रु सो सीइंग इत्यर्थः तस्य षष्ठी विभक्तौ एकवचने सो शत्रु प्रत्ययः निध्यायत् तकारान्तः षष्ठी एकवचनम् बद्धानुकम्पस्य बद्धा अनुकम्पा यस्य सः बहुव्रीहिः तस्य कृपा दयानुकम्पा स्यात् कृपा दया अनुकम्पा इति पर्यायपदानि भगवतः पूर्वमपि दृष्टं भगवान् शब्दः वाल्मीकेः वदनारविन्दात् वदनम् अरविन्दम् इव सो फेज् विच् इस् लैक् द लोटस् कर्मधारय समासः तस्मात् वदनम् अरविन्दम् इव तस्मात् वदनारविन्दात् छन्दोमयी छन्दस् इति शब्दात् मयट् प्रत्ययः तद्धितः तद्रूप्ये छन्दोरूपम् सो इन् द फार्म् आफ् मीटर् इत्यर्थः मयट् प्रत्ययः स्त्रीलिङ्गत्वात् नीप् प्रत्ययः छन्दोमयी काचित् एवं निस्ससार निस् उपसर्गः सृ गतौ धातुः सरति गच्छति इत्यर्थः निस्सरति सो सृ गतौ धातुः लिट् लकारे प्रथमपुरुषे एकवचनम् निस्ससार सरस्वती ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती सो आल् दीस् आर् पर्याय पदस् फोर् स्पीच् गीः वाक् वाणी सरस्वती इति ओके सो तत्र कञ्चन क्रौञ्चमिथुनादेकम् पञ्चशरविद्धमपि व्याधेनानुविद्धम् निध्यायतो बद्धानुकम्पस्य भगवतो वाल्मीकेर्वदनारविन्दात् छन्दोमयी काचिदेवन् निःससार सरस्वती एनि क्वश्चन्स् Is the Anvaya identified for the Gadya portion also? The Prashnaha Kartum Shakyate. So it is also possible to do it. So because, I mean, even the Gadya will not be in the strict Anvaya order. Could be done. So I did not do it here because of time constraints basically. तत्रापि कर्तुं शक्यते यथा पद्येषु अन्वयक्रमे आकाङ्क्षाक्रमेण अन्वयः क्रियते एवं गद्ये अपि कर्तुं शक्यते So Gadya sometimes it becomes very very elaborate because Gadya passages sometimes are much longer than Padyas. So since Padya is of a limited length, it is usually done. So for longer Gadyas it is a bit difficult to do it. Could be done, I mean theoretically. Either way it could be done. Okay, so we'll go to the next one. Just a moment, I'll be back.
Something else? Amma!
क्षन्तव्यः कश्चन प्रश्नः अस्ति वदनारविन्दम् इत्यत्र रूपकं वा उपमा वा इति अर्थात् वदनम् एव अरविन्दं वदनारविन्दम् इति वा वदनम् अरविन्दम् इव इति उपमा वा इति सामान्यतः उभयथापि वक्तुं शक्यते किन्तु अत्र विशिष्य व्याख्याने उच्यते अत्र उपमा एव स्वीकरणीया न तु रूपकम् इति यतोहि यदि रूपकं स्वीक्रियते वदनमेव अरविन्दं तदा अरविन्दस्य प्राधान्यं भवति अरविन्दात् वाणी निस्ससारा इति न युज्यते सो सिन्स् अ लोटस् इस् नाट् केपबल् ऐ मीन् सिन्स् स्पीच् केनाट् कम् औट् आफ् अ लोटस् देर् इस् नो योग्यता वेरस् इफ् वि यूस् द उपमा वदनम् अरविन्दम् इव सो लोटस् लैक् मौत् सो देर् वदनस्य प्राधान्यम् वदनात् वाणी निस्ससारा इति युज्यते सो स्पीच् कमिङ्ग् औट् आफ् द मौत् इस् योग्य वेरस् इफ् यु से द लोटस् इफ् यु आर् सेयिङ्ग् वदनम् एव अरविन्दम् देन् द लोटस् गेट्स् प्राधान्य सो स्पीच् कमिङ्ग् औट् आफ् लोटस् इस् नाट् योग्य ऐ मीन् नाट् डस् नाट् फिट् अतः व्याख्याने स्पष्टतः वदनम् अरविन्दम् इव इति उपमा एव स्वीक्रियते So we'll go to the next one. So Bhoja repeats the shloka from the Ramayana. Ramayanasya prasiddhaha shlokaha atra avartyate. So evam nissasara Saraswati. He said Saraswati evam anena prakarena nissasara. So the speech emerged thus. So like what he describes or gives that shloka from the Ramayana. Okay. सुप्रसिद्धः श्लोकः तथापि वदामः जानकी भगिनि यू हैव टु अन्म्यूट् योर् सेल्फ् मा निषादप्रतिष्ठां त्वम्
मा निषादप्रतिष्ठां त्वम् मा निषादप्रतिष्ठां त्वम्
मा निषादप्रतिष्ठां त्वम्
मा निषादप्रतिष्ठां त्वम् मा निषादप्रतिष्ठां त्वम्
अगमशाश्वतीसमाः
अगमशाश्वतीसमाः अगमशाश्वतीसमाः
यत्क्रौञ्चमिथुनादेकम्
यत्क्रौञ्चमिथुनादेकम् यत्क्रौञ्चमिथुनादेकम्
अवधीः काममोहितम्
अवधिः काममोहितम् अवधिः काममोहितम्
वाल्मीकेः मुखात् निर्गतां वाणीम् अनुवदति सो हि रिपीट्स् दट् दिस् इस् वाट् इमर्ज्ड् फ्रम् द मौत् आफ् वाल्मीकि परच्छेदं करोतु
मा निषाद प्रतिष्ठा त्वम् अगमः शाश्वतीः समाः यत् प्रमुञ्चमिथुनात् एकम् अब्धीः काममोहितम्
सम्यक् सो मा निषाद प्रतिष्ठां त्वम् अगमः शाश्वतीः समाः यत् क्रौञ्चमिथुनात् एकम् अवधीः काममोहितम् इति पदच्छेदः तत्र हे निषाद इति सम्बोधनम् सो वि टेक् द सम्बोधन फस्ट् हे निषाद निषाद इति सम्बोधनम् हे इति सम्बोधनम् बोधयति सो यु डोण्ट् हाव् टु हाव् हे एव्रीवेर् फार् सम्बोधन इट् जस्ट् इण्डिकेट्स् क्लारिफैस् दट् इट् इस् अ सम्बोधन हे व्याध इत्यर्थः. सो व्याधम् उद्दिश्य वाल्मीकेः इदं वचनम्. मा अगमः, अगमः इति क्रियापदं प्रथमार्धे. मा अगमः, मा गच्छ, मा प्राप्नुहि इत्यर्थः. मे यू नॉट अटेन और मे यू नॉट गेट. किम्, किम् मा अगमः, प्रतिष्ठाम. सो प्रतिष्ठाम मा अगमः. सो प्रतिष्ठा इति बहुभिः बहुधा व्याख्यायते. सो मेनी पीपल इंटरप्रेट इट इन डिफरेंट वेज. प्रतिष्ठा इत्यस्य स्थितिः इत्यर्थः. सो जस्ट एक्जिस्टेंस. सो तदा तु मे यू नॉट लिव फॉर लॉन्ग इत्यर्थः भवति. अथवा प्रतिष्ठा इत्यस्य महात्म्यम् यशः इत्यर्थः अस्ति. सो फेम और ग्रेटनेस. सो मे यू नॉट अटेन एनी फेम और ग्रेटनेस. और ऐश्वर्य आनंदानाम अवाप्तिः. सो मे यू नॉट अटेन वेल्थ और हैप्पीनेस. सो प्रतिष्ठा इत्यस्य बहुधा व्याख्यानं क्रियते. भिन्नाः अर्थाः भिन्नैः व्याख्याकारैः दीयन्ते. सो एतेषु किमपि, सो एनी ऑफ दीज, मे यू नॉट अटेन प्रतिष्ठा. प्रतिष्ठां मा अगमः. कः? त्वं. त्वं प्रतिष्ठां मा अगमः. सो त्वं वक्तव्यं नास्ति. नीड नॉट बी स्पेसिफिकली टोल्ड बिकॉज इट इज मध्यम पुरुष. उच्यते चेदपि क्लेशः नास्ति. सो त्वं प्रतिष्ठां मा अगमः. कियत् कालम् इति चेत् शाश्वतीः समाः. शाश्वत, शाश्वतं नाम अनन्तम् इत्यर्थः. समाः, सो देयर इज अ टाइपिंग एरर हियर. सो समाः, समा नाम संवत्सरः, वर्षम् इत्यर्थः. अनन्त संवत्सरान् यावत्. सो फॉर अ वेरी लॉन्ग टाइम, फॉर एटर्निटी. सो मे यू नॉट अटेन प्रतिष्ठा फॉर इटर्निटी, फॉर इन्फिनिट नंबर ऑफ इयर्स. ओके, सो the Shapa was not only for the Vyadha but for his entire parampara. That is how they interpret it. So Shashvatihi samaha tvam pratishtham ma agamaha. Kimartham Shapaha? Yat, yasmat karanat. So because avadhihi, why? Because avadhihi, tvam avadhihi, you killed, hatavan. Kim hatavan? कम अवधीः क्रौञ्च मिथुनात् एकम्. सो क्रौञ्चयोः मिथुनम् तस्मात् एकम् अवधीः. सो कीदृशम् काममोहितम्. सो स्मरविवशम्. सो दट इज द कॉज फैक्टर फॉर वाल्मीकि बीइंग एक्सेसिवली एंग्री. इन द नॉर्मल कोर्स हंटर हंटिंग एनिमल्स और बर्ड्स इज हिस व्हाट यू कॉल स्वधर्म, दट इज हिस वृत्ति. So here in this case he is, his karuna was because it was engaged in in enjoying with its mate. So at such a time he should not have destroyed that, because by killing that krauncha he destroyed it, the mate, and whatever was the progeny. So that is why the shapa is also for him and his descendants together, covering everything. So kidrisham kamamohitam krauncha mithunadekam avadhihi yat yasmat karanat ataha tvam shashvatihi samaha pratishtham ma agamaha iti shlokah. So he nishada yat yasmat ityarthah kamamohitam krauncha mithunadekam avadhihi tasmat tvam shashvatihi samaha प्रतिष्ठां मा अगमः. सो किं तात्पर्यम्? तात्पर्यम् इत्यत्र अपि साक्षात् श्रुतः अर्थः. सो द एक्सप्लिसिट मीनिंग थ्रू द वर्ड्स इज दिस. हे व्याध, निर्दयः त्वं स्मरविवशं प्रियया सह क्रीडारतं क्रौञ्चपक्षिणं हतवान्, अतः अनंत संवत्सरकालं प्रतिष्ठां मा प्राप्नुहि. सो सिंस यू being heartless, you killed the krauncha which was engaged in enjoying with its mate. So may you not attain pratishtha for eternity. So that is the external or the superficial meaning. If you go into the commentaries of Ramayana,
So this shloka is interpreted innumerable number of ways. Bahubhihi vyakhyakritihi bahudha vyakhyanam kriyate asya shlokasya. Rama paratvena vyakhyanam kriyate. So ma nishada iti ekam padam kratva ma nama rama lakshmihi sa asyam asmin nishidati iti ma nishadaha nama ramaha athava vishnuhu. He vishno tvam shashvatihi samaha pratishtham agamaha. So there it is not a nishedha. So it says, O Vishnu, you attained pratishtha for eternity. Yat, why? Krauncha mithuna dekam. So among the pair of demons. So krauncha shabdasya anyatha vyutpatihe pradarshyate. So among the pair of Ramana and Mandodari, kama mohitam ekam avadhihi. You killed one which was Kama Mohita, that is Ravana. So you killed Ravana. O Vishnu, you attained fame for eternity by killing Ravana. Ityevam Ramayana Kathayaha Saraha Asmin Prathama Shloke Eva Asti Iti Kaishchid Vyakhyayate. So Atra Nishada Shabdasya Ravana Paratvena Api Vyakhyanam Kriyate. So Ravanaha Krauncha Mithuna Dekam Arthat Sita Ramayor Madhye Ekam Avadhihi apaharatavan ataha ravanam prati shapaha ityevam bahudha vyakhyanam kriyate. The yatha shrutarthaha, the exact meaning of the shloka is this. So vyadhaha valmikina shaptaha. So atra agamaha iti gamlagatau dhatoho gachati. So the gamdhatu lunglakare madhyamapuruṣe ekavachanam. So samskrite trayaha lakaraha bhutakalam dyotayanti. So there is the lung which we use commonly. So lit and lung. Okay, lung is actually the lakara which we find most commonly in kavyas. Lit and lung. So langaha apekshaya litaha lungascha prayogaha bahudha drishyate kavyeshu. Ayam lung lakaraha samanya bhutarthe agamat agamatam agaman agamaha. Madhyama Purushe Ekavachana Rupam. So Avadhihi Ityasti Dritiya Ardhe Tatrapi Lunglakaraha Hana Dhatohu Hana Hanti Ityasya Dhatohu Lunglakare Madhyama Purushe Ekavachanam Rupam Bhavati Avadhihi Avadhit Avadhishtam Avadhishuhu Avadhihi Iti Madhyama Purushe Ekavachanam. You killed. So Ityarthaha. Ma iti avyayam. So nishedharthakam avyayam. So vishesha hasti mangi lung iti sutrena mangaha yoge lung lakara vidhiyate. So in association with ma lung lakara, the avyaya mang, we have lung lakara usually. Also namang yoge ityanena adagama nishedha. So in lung lakara, like in lang lakara, you see the a. Agachat, agamat, ahan, avadhit. So yatha langlakare evam lunglakare api dhatoho purvam akaraha shruyate. So that akara is called the at. It is an agama, an addition to the dhatu in lunglakara lang also. So vastutaha yada ma ityasya prayogaha kriyate tada adagamaha na bhavati. So usually when we use ma with the lung lakara, there is no adagama. So ma bhut, ma karshihi, ma shrausham, ityevam akaraha nasti. Vastutaha abhut, akarshihi, ashrausham, ityadi rupam, mangi upayukte adagamaha na bhavati. But in this case you do see the ma agamaha iti adagamaha shruyate. We call such prayoga as arsha prayoga. So rishehe idam arsham. So prayogas by sages which are not according to the rules, the normal rules of grammar, we call it as an arsha prayoga. So it should have been ma gamaha. So ma agamaha iti arsha prayoga. Samaha samvatsaro vatsarobdaha hayano stri sharat samaha iti amara koshe. Samvatsaraha, vatsaraha, abdaha, hayanaha,
sharat sama iti sarvamapi varsham ityasya paryayapadam. So all these are words which mean year. So akarantaha strilingaha dvitiya vibhaktau ekavachanam. Shashvati samaha pratishtha magamaha. For infinite years ityatra dvitiya vibhaktihi. So kaladhvanor atyanta sanyoge iti sutrat dvitiya vibhaktihi. It means for the entire period of those infinite years ityarthaha. Okay, it's a special kind of a prayoga. Yat krauncha mithunat, we saw krauncha mithunat earlier. Krauncha yoho mithunam tasmat ekam avadhihi kama mohitam, etc. So the chandas, very obviously, is anushtup, one of the most popular kinds of chandas. Anushtup is actually a collection of meters. It is not a single meter. Okay, it is a class of meters. So any verse which has 8 syllables in a pada, yatra pratipadam ashtau aksharani bhavanti tat sarvamapi anushtup ityeva kathyate. So there are many varieties in anushtup, kintu the common variety which is called the shloka. Okay, so tatra idam lakshanam bhavati panchamam laghu sarvatra saptamam dvichaturthayoho guru shashthancha sarvesham etat shlokasya lakshanam. So the common kind of anushtup, which is also called shloka. So atra panchamam laghu. So again, anushtup is not a chandas which fixes every letter. Okay, so the rule is only for the 5th, 6th and the 7th letter. The 5th letter of all the padas should be laghu. Ma nishada pra, pra is laghu. Agamash shashvatihi shva is laghu. Krauncha mithu, thu is laghu. Kama, ma is laghu. Panchamam laghu sarvatra, saptamam dvichaturthayohu. In the 2nd and 4th pada, the 7th letter is laghu. The sa and the he, it is laghu. Guru shashthancha sarvesham. The 6th of all padas is guru. So, nishada pratishtham. So the T is the 6th letter, which is guru. Shashvatihi, Tihi is guru. Na is guru. And Mo is guru. So that is called the usual anushtup chandas. Okay. So manishada pratishtham tvam agamashashvati samaha yatkrauncha mithuna dekam avadhih kama mohitam. Okay. Prashnaah santiva? Any questions? So we will stop here for today, since the time is crossed. So agrima varge, agrimam shlokam pashyama. So sankshepena adya. Okay, so I intended to do one more, which is so vacham nishamya bhagavan satuna radasya pratetasah pravachasam prathamah kavinam madhyan dinayani amaya maharshi sevyam punyama vapatamasam tamasam nihantrim. So te tasmin shloke valmikihi naradat ramakatham shrutva madhyan nikam kartum tamasanadim gachati iti tasya varnana krata. So tatra krauncha mithunadekam panchashara viddham api vyadhenana viddhan nidhyayato baddhanakampasya bhagavato valmikeir vadanara vinda chandomayi kachidevan nissasara saraswati iti gadya bhagaha. So krauncha mithunadekam vyadhena nihatam drishtva shoka vishtasya tasya valmikeha mukhat shapaha shloka rupena chandomayi, so chandobaddha rupena bahirayati saha shlokaha manishada. Manishada pratishtham tvam agamashashvati samaha yatkrauncha mithunadekam avadhih kama mohitam. So valmikihi vyadham shapati chirakalam yavat त्वं प्रतिष्ठां मा प्राप्नुहि इत्येवं वाल्मीकेः शापः अपि अधीतः. अग्रे अग्रिमवर्गे पठामः. लक्ष्मीं तनोतु नितरामितरानपेक्षमङ्घ्रिद्वयम् निगमशाखिशिखा प्रवालम् हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नम् विघ्नाद्रिभेदशतधारधुरन्धरन्नः.